ेषाम् को वा पुरा सुन्नेष्वासमरुताम् यद्योजुज्रे कीलास्याः ऐतान्वथेषु दस्तुषः कस्वस्रावकथायजुः कस्मै दस्रुसुदासे अन्वापजलिलाभिर्वृष्टयः सह ते मा आहुययायजुरुभज्युभिर्विभिर्मदे नरो मर्या अरेपसा इमान् पश्यन्निजुष्टिः ये अञ्जुषु ये वासीषु स्वभानवस्रक्षुरुग्मेषु खादिषु श्राजारथेषु धन्वसु युष्माकम् स्मारताम् अनुमुदेदधे मरुतो जीरदानवः वृष्टीद्यावो यदीरिव आयम् नरः सुदानवो दासुषे दिवको समचुच्चवः विपर्जन्यम् सृजन्ति रोदसी अनुधन्वनायन्ति वृष्टजाः तदृदानाः सिन्धवः क्षोदसारथप्रसस्रब्धेन वो यथा स्यन्ना स्वायुवाध्वनो विमोचने वियद्वर्तन्तयेन्याः आयादमरुतो दिव आन्तरिक्षादमादृता मावस्थादपरावताः मा वो रसानीतभागुभाक्रमर्मावस्सिन्धर्निरीरमत् मा वः परिष्टात्सरजः पुरीषम् यस्मै यत्सुम् नमस्तु वः तम् भस्वर्धम् वृधानाम् श्रेषम् गणम् मारुतम् न व्यसीनाम् दिवृष्टयाः शर्धम् शर्धम् वयेषाम् प्रातम् प्रातम् गणम् गणम् सुसक्तिभिः अनुक्रामेमधीतिभिः कस्मा अद्य सुजाता जरातहौ याय प्रजायुः येनायामेन मरुताः येन तोकायतन याय धान्या अम्बीजम् वहद्वे अक्षीतम् अस्मभ्यम् तद्धत्तन यद्वजीमहे राधो विश्वायुसौभागम् अदीयामनिदस्थिरः स्वस्तिभिर्हित्वा मध्यमराजी वृष्टीसं योरापमुसृभेषजाम् श्याम मरुतः सह सुदेवः स महायति सुवीरो नरो मरुतः समर्त्याः यन्त्रायध्ये श्यामते स्निहि भोजान्स्तुभतो अस्य याम निरणङ्गाभो न जवासे यतः पूर्वाद्येव सखी ननुह्वय गिरा गृणीः